नमस्सर्वेभ्यः अद्य शिक्षा वर्गस्य विंशः पाठः नवम्बर् मासस्य चतुर्थः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो ह्यः वयं व्याकरणभागे कृत् प्रत्ययानां विषये किञ्चित् ज्ञातवन्तः तत्र शत्रु शानच् इत्येतयोः प्रत्यययोः सविस्तरम् अध्ययनं क्रियते शिक्षास्तरे तस्य प्रत्ययस्य अर्थः दृष्टः उदाहरणवाक्यानि ज्ञातानि तथा पुल्लिङ्गे प्रथमाविभक्तिरूपाणि पठन् पठन्तौ पठन्तः पश्यन् पश्यन्तौ पश्यन्तः इत्यादि रूपाणि अपि दृष्टानि. सर्वैः स्क्रीन् दृश्यते वा? आर् यू एबल् टु सी मै स्क्रीन्? धन्यवादाः. सो काव्यांशेषु सुभाषितानि कानिचन दृष्टानि. तदर्थितस्यापि हि धैर्यवृत्तेः न शक्यते धैर्यगुणः प्रमाष्टुम्. अधोमुखस्यापि कृतस्य वह्नेः नाधः शिखायान्ति कदाचिदेव. नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी गुणी च गुणरागी च विरलः सरलो जनः. सत्यं तपो ज्ञानमहिंसतां च विद्वत्प्रणामं च सुशीलतां च एतानि यो धारयते स विद्वान् न तत्र शास्त्राध्ययनं हि कारणम् अथवा न केवलं पठते स विद्वान् इत्येवं सुभाषितानि अपि दृष्टानि. अद्य शत्रुशानचोः विषये इतोपि किञ्चित् जानीमः. तत्र ह्यस्तनदृश् पाठे ज्ञातवन्तः शत्रुप्रत्ययः वर्तमानकालार्थे क्रियाद्वयं भवति. तत्र पठति गच्छति इत्यस्ति. पठन् गच्छति इति शत्रुप्रत्ययस्य प्रयोगः. कः अर्थः? पठनक्रिया यदा गमनक्रिया भवति तदा पठनक्रिया आरब्धा न समाप्ता इत्यर्थः. सो तस्मिन्नर्थे शत्रुप्रत्ययः उपयुज्यते. कर्तारं बोधयति सः प्रत्ययः. परस्मैपदिभ्यः धातुभ्यः शत्रुप्रत्ययः भवति. आत्मनेपदिभ्यः शानच्च प्रत्ययः भवति. उभयपदिभ्यः धातुभ्यः उभयं भवति शत्रुशानच् इति प्रत्ययद्वयम् अपि भवतः इति ज्ञातं. तत्र इदानीम् आदौ शत्रुप्रत्ययस्य रूपाणि ज्ञात्वा अनन्तरं शानच् प्रत्ययं पश्यामः. सो शत्रु इति प्रत्यये शकारः ऋकारश्च प्रयोगे न श्रूयते. अत् इति भागः एव श्रूयते प्रातिपदिके. सो पठ अत् पठत् वद् अत् वदत् इत्येवम् अत् इति भागः एव रूपे श्रूयते. एतत् प्रातिपदिकं भवति. कृदन्तं सर्वे कृदन्ताः प्रातिपदिकसंज्ञां प्राप्नुवन्ति. ततः सुप् प्रत्ययस्य योजनं भवति, नामपदानि भवन्ति. सो तकारान्तं प्रातिपदिकं पठन् पठन्तौ पठन्तः, वदन् वदन्तौ वदन्तः इत्येवं रूपाणि. अन्यः अपि अंशः दृष्टः, शतृ प्रत्ययस्य रूपं ज्ञातुं लट्लकारे प्रथमपुरुषे बहुवचनरूपं ज्ञातव्यं. तत्र ङ्ति इति भागं निष्कास्य तकारस्य योजने शतृ प्रत्ययान्तं प्रातिपदिकं सिद्ध्यति. तत्र विशेषधातूनां शतृप्रत्ययान्तरूपज्ञाने इदं बहु उपयोगी भवति. सो सामान्यधातूनां वयं वक्तुं शक्नुमः, सो पठति पठत् पठन्, सो लिखति लिखन्, लिखन् इति प्रथमान्तं, लिखत् इति प्रातिपदिकं, सो नृत्यति नृत्यत् इत्येवं शक्यते. किन्तु यत्र विशिष्टाः धातवः ददाति इत्यस्ति, ददाति दत्तः ददति दस्य ददत्, करोति कुरुतः कुर्वन्ति अतः कुर्वत् इत्येवं. सो अस्यैव केषाञ्चन विशिष्टधातूनां रूपाणाम् अभ्यासम् अद्य कुर्मः. अत्र केचन धातवः सन्ति, आदौ तेषां बहुवचनरूपाणि वक्तव्यानि. लट्लकारे प्रथमपुरुषे बहुवचनरूपं करोति इत्यस्ति. ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु. श्रूयते, करोति
कुरुतः कुर्वन्ति,
कुरुतः कुर्वन्ति, शृणोति
शृणुतः शृण्वन्ति,
शृण्वन्ति, चिनोति
शृणुतः चिन्वन्ति,
चिन्वन्ति, सम्यक्, शक्नोति
शक्नुतः शक्नुवन्ति,
शक्नुवन्ति, आम्, प्राप्नोति
प्राप्नुतः प्राप्नुवन्ति,
सो एवं प्राप्नोति प्राप्नुतः प्राप्नुवन्ति इति रूपाणि. एतदाधारेण शतृ प्रत्यय रूपं वक्तव्यं, वदति वा कुर्वन्ति, अत्र शतृ प्रत्ययं कुर्वन् कुर्वन् वचनत्रये वदतु, कुर्वन्
कुर्वन्
कुर्वन्तौ
कुर्वन्तौ कुर्वन्तः
कुर्वन् कुर्वन्तौ कुर्वन्तः,
शृण्वन् शृण्वन्तौ शृण्वन्तः, चिन्वन् चिन्वन्तौ चिन्वन्तः, शक्नुवन् शक्नुवन्तौ शक्नुवन्तः, प्राप्नुवन् प्राप्नुवन्तौ प्राप्नुवन्तः.
सम्यक्, धन्यवादः. सो एते सर्वे धातवः, दे हाव् सिमिलर् फार्म्स्. सो तत्र एवं शत्रन्तरूपाणि भवन्ति, यदा कुर्वन्ति कुर्वन्, शृण्वन्ति शृण्वन्, चिन्वन्ति चिन्वन्, शक्नुवन्ति शक्नुवन्, प्राप्नुवन्ति प्राप्नुवन्, सारी देर् इस् अ टैपो हियर्, इट् इस् प्राप्नुवन् प्राप्नुवन्तौ प्राप्नुवन्तः. एतत् अवधानाय भवतु, शृण्वन्ति शृण्वन् एतत्तु शृण्वन् न, श्रु इति अशुद्धं, शृ एव, शकारः तस्य ऋकारः, एवमपि लेखितुं शक्यते, अत्र फोण्ट् मध्ये एवम् आगच्छति, कथञ्चित् तत्र शकारः अस्ति ऋकारः अस्ति न तु रेफः. तत्र श्रु धातुः, मूलधातुः श्रु धातुः, केषुचित् प्रयोगेषु श्रु इति भवति, यथा श्रुतं श्रुतवान् इत्यादिषु श्रु इति भवति, किन्तु अत्र लट्लकारे शत्रुप्रत्यये च शिर् इत्येव तस्य रूपं. तत्र अवधानं दातव्यं, कदाचित् दोषः भवति. सो शृण्वन् इति असाधु. सो दिस् इस् राङ्ग् सेयिङ्ग् शृण्वन्. लेखनं वा उच्चारणं वा शृण्वन् शकारः ऋकारः एव भवति. शृण्वन् शृण्वन्तौ शृण्वन्तः. सो एतानि रूपाणि उपयुज्य इदानीं किञ्चित् एतत् पश्यामः. अग्रिमः अभ्यासः वाक्यद्वयमस्ति, तस्य योजनं करणीयं शतृप्रत्ययान्तम् उपयुज्य. बालः कार्यं करोति गायति इत्यस्ति. रमा गुरुराजन्.
बालः कार्यं
कुर्वन् गायति. अस्य बहुवचने कथं भवति?
बालाः कार्यं कुर्वन्तः गायन्ति.
सम्यक्. बालाः कार्यं कुर्वन्तः गायन्ति. बालः कार्यं कुर्वन् गायति. बालाः कार्यं कुर्वन्तः गायन्ति. अग्रिमं वाक्यं. चित्रकारः गीतं शृणोति, चित्रं लिखति. अविनाश् वैद्य.
नमस्ते मैडम्. चित्रकारः गीतं शृणोति, चित्रं लिखति. चित्रकारः गीतं शृणन् चित्रं लिखति.
किं भवति? शृणोति शृणुतः.
शृण्वन्ति.
अतः
शृण्वन् चित्रं लिखति.
सम्यक्. बहुवचने
चित्रकाराः गीतं शृण्वन्तः चित्रं लिखति.
चित्रं
लिखन्ति.
लिखन्ति. सम्यक्. चित्रकाराः गीतं शृण्वन्तः चित्रं लिखन्ति. अग्रिमं वाक्यं. सुधा श्रीकांत.
अर्चकः पुष्पाणि चिनोति, स्तोत्रं वदति. अर्चकः पुष्पाणि चिन्वन् स्तोत्रं वदति. बहुवचने अर्चकाः पुष्पाणि चिन्वन्तः स्तोत्रं वदन्ति.
सम्यक्. अर्चकः पुष्पाणि चिन्वन् स्तोत्रं वदति. अर्चकाः पुष्पाणि चिन्वन्तः. चिन्वन् चिन्वन्तौ चिन्वन्तः. चिन्वन् इत्यस्य सङ्गृह्णाति, लताभ्यः पुष्पाणि स्वीकरोति. टु प्लक्, टु कलेक्ट् इत्यर्थः भवति. सो पुष्पाणि चिन्वन्तः स्तोत्रं वदन्ति. अग्रिमं वाक्यं. राव.
गुड् मार्निङ्ग्. श्रूयते वा?
हा, श्रूयते.
लेखकः प्रशस्तिं प्राप्नोति, गतदिनानि स्मरति. एकवचने लेखकः प्रशस्तिं प्राप्नुवन् गतदिनानि स्मरति.
सम्यक्. प्रशस्तिं प्राप्नुवन् गतदिनानि स्मरति.
बहुवचने लेखकाः प्रशस्तिं प्राप्तवन्तः गतदिनानि स्मरति.
गतदिनानि
स्मरति. स्मरन्तः.
स्मरन्ति.
स्मरन्ति. सोरि.
लेखकाः प्रशस्तिं प्राप्नुवन्तः गतदिनानि स्मरन्ति. यदा सः प्रशस्तिं प्राप्नोति तस्मिन् समये एव तस्य स्मरणं भवति. पूर्वदिनानाम् इत्यर्थः। एवम् एतेषां धातूनां बहुवचनरूपम् आश्रित्य शतृप्रत्ययान्तरूपम्। अग्रे इतोपि केचन धातवः सन्ति, सो एतेषां धातूनां बहुवचनरूपम् निर्मला राजशेखर क्रीणाति।
नमस्ते। क्रीणाति
क्रीणीतः
क्रीणीतः देन् क्रीणन्ति
क्रीणन्ति सम्यक्। सो क्रीणाति क्रीणन्ति जानाति
जानन्ति जानीतः जानन्ति
आम् जानीतः जानन्ति। गृह्णाति
गृह्णीतः गृह्णन्ति
गृह्णीतः गृह्णन्ति। बध्नाति
बध्नीतः बध्नन्ति मत्नीतः
मत्नन्ति सम्यक्। सो क्रीणाति क्रीणन्ति जानाति जानन्ति गृह्णाति गृह्णन्ति बध्नाति बध्नन्ति मत्नाति मत्नन्ति। धातूनाम् अर्थस्तु ज्ञायते एव। क्रीणाति बैस् जानाति नोस् गृह्णाति सो टेक्स् और् होल्ड्स् बध्नाति टैस् मथ्नाति चर्न्स् इत्यर्थः। इदानीम् एतेषां शत्रन्तरूपाणि सो क्रीणन्ति अस्य किं भवति शत्रुप्रत्ययार्थम्। निर्मला भगिनि
क्रीणीतः क्रीणी यु वाण्ट् मी टु से आल् द त्री फार्म्स् इस् इट्
द शत्रु फार्म् वाट् इस् द शत्रु
इट् विल् बि क्रीणीतः देन् क्रीणन्ति जानन्तौ
जानन्तौ जानन्तः
गृह्णाति विल् बि गृह्णन् गृह्णन्तः
गृह्णन्तः
बध्नाति बध्नन् बध्नन्तौ बध्नन्तः मत्नाति मत्नन् मत्नन्तौ मत्नन्तः
मत्नन्तौ मत्नन्तः सम्यक्। सो क्रीणन्ति क्रीणन् जानन्ति जानन् गृह्णन्ति गृह्णन् बध्नन्ति बध्नन् मत्नन्ति मत्नन्। सो एतानि क्रियापदानि उपयुज्य वाक्यं कुर्मः। मत्नाति इत्यस्य अर्थः पृच्छ्यते। टु चर्न् समुद्रमथनं समुद्रं देवासुराः मथ्नन्ति। सो देवास् एण्ड् असुरास् चर्न् द ओशन्। समानः अभ्यासः। सो यु हव् टु जायिन् यूसिङ्ग् शत्रु। सो पद्मनाभन्
छात्रः पुस्तकं क्रीणाति बहुकालं यापयति। छात्रः पुस्तकं क्रीणन् बहुकालं यापयति।
छात्रः पुस्तकं क्रीणन् बहुकालं यापयति।
बहुवचने छात्राः पुस्तकं क्रीणन्तः बहुकालं यापयन्ति।
सम्यक्। छात्राः पुस्तकं क्रीणन्तः बहुकालं यापयन्ति उत्तमम् अग्रे महालक्ष्मी
नमस्ते सः उत्तरं जानाति न वदति सः उत्तरं जानन् न वदति
सः उत्तरं जानन् अपि न वदति सो अपि इस् नाट् नीडेड् बट् सामान्यतः उच्यते सो ईवन् दो हि न्यू हि डस् नाट् टेल् सो सः उत्तरं जानन् अपि न वदति बहुवचने
ते उत्तरं जानन्तः अपि न वदन्ति
न वदन्ति ते उत्तरं जानन्तः अपि न वदन्ति सम्यक् अग्रे रामकृष्णराव न श्रूयते
पिता पुत्रं गृह्णन् यानम् आरूढवान्
पिता पुत्रं गृहीतवान् यानम् आरूढवान् सो पिता पुत्रं गृह्णन् यानम् आरूढवान् बहुवचने
पिता पितरौ पितरः पुत्रं गृह्णतः यानम् आरूढवान्
यानम्
आरूढवन्तः
आरूढवन्तः पितरः पुत्रं गृह्णन्तः यानम् आरूढवन्तः सारि अगेन् देयर् इस् अ टैपिङ्ग् एरर् हियर् नाट् आरूढवन्ति आरूढवन्तः तत्र यथा मया उक्तं सो इवन् दो शत्रुप्रत्ययः वर्तमानकालं बोधयति किन्तु तस्य भूतकालेन भविष्यत्कालेन वा अन्वयः भवति सो इट् डस् नाट् इण्डिकेट् एब्सल्यूट् प्रेसेण्ट् ओके सो यदा सा अन्या क्रिया भवति तस्मिन् काले इदं वर्तमानं सो वेन् ही क्लैम्ड् वेन् द फादर् क्लैम्ड् द गृह्णन् द ग्रहणक्रिया वास् स्टिल् गोयिङ्ग् आन् सो इट् इण्डिकेट्स् simultaneousness, the same time along with the main kriya. So, anyaya pradhana kriya asti, taya saha samana kalikatvam bodhayati, tadeva vartamanakvam. So, shatri pratyayantasya upayogaha vartamana kale eva bhavediti nasti. Arthad, pradhanam kriyapadam vartamana kale eva bhavediti nasti. Tattu bhutakale vartamane bhavishyati etra kutrapi bhavati. तस्मिन्नेव काले इयमपि क्रिया भवति इति शत्रुप्रत्ययः बोधयति सो अन्यं वाक्यम् अन्यत् वाक्यं पश्यामः लता भगिनी यू हैव टू अनम्यूट योरसेल्फ
भगिनी श्रूयते वा
हा श्रूयते
योधः अश्वं भग्नं शत्रुं दृष्टवान्
योधः अश्वं भग्नं शत्रुं दृष्टवान् बहुवचने
योधाः अश्वं भग्नन्तः शत्रुं दृष्टवान् दृष्टवन्तः
योधाः अश्वं भग्नन्तः शत्रुं दृष्टवन्तः यस्मिन् काले बन्धनं तस्मिन्नेव काले दर्शनम् इत्यर्थः सो अत्र क्रियापदं शत्रुप्रत्ययवत् भवति इति सो दट् क्रियापदम् अत्र क्तवतु प्रत्ययान्तं सो क्तवतु इत्यपि कृत् प्रत्ययः भूतकालार्थकः सो गतवान् श्रुतवान् इत्यादि तत्रापि क्तवतु इत्यत्र तवत् इति श्रूयते अतः अत्रापि अत् अस्ति सो आरूढवत् इति तकारान्तं प्रातिपदिकम् अतः तस्यापि रूपाणि शत्रुप्रत्ययवत् यथा गृह्णन् गृह्णन्तौ गृह्णन्तः एवम् आरूढवान् आरूढवन्तौ आरूढवन्तः सो उभयत्र तकारान्तत्वमस्ति अतः समानं रूपं भवति भूतकालार्थे सः प्रत्ययः सो हौ डु वि डिफ्रेन्शियेट् तत्र वत् इत्यस्ति दट् इस् नाट् जस्ट् अत् सो स्पष्टं भेदः अस्ति किल शत्रुप्रत्यये केवलम् अत् इति भवति तत्र तु तवत् इति भवति सो यदि पठ धातुः तर्हि पठत् इति शत्रन्तं रूपं पठितवत् इति कृतवत्वन्तम् सो पठन् पठन्तौ पठन्तः पठितवान् पठितवन्तौ पठितवन्तः भेदः अस्त्येव अग्रे गच्छामः इतोपि केचन विशिष्टाः धातवः सन्ति सो आदौ तेषां बहुवचनरूपाणि जानीमः केपि वक्तुमिच्छन्ति एनिबडि हू हेज़न्ट् ट्रैड् सो फार् वाण्ट्स् टु ट्रै रामानुजं महोदय
नमस्ते मान्ये रोदति रोदन्ति बहुवचनं
रोदिति रुदितः
रुदन्ति
ब्रवीति
ब्रवीति
ब्रूतः
ब्रूवन्ति
ब्रुवन्ति ब्रवीति ब्रूतः
ब्रूवन्ति
ददाति
ददाति ददतः
ददः ददति
ददति
ददाति दत्तः ददति बिभेति
बिभतः बिभति
बिभेति बिभीतः बिभ्यति
बिभ्यति
जुहोति जुहुतः जुह्वति
जुह्वति
सो आल् दीस् आर् वेरि स्पेशल् फार्म्स् सो तृतीयगणे द्वितीयगणे सो रोदिति रुदन्ति ब्रवीति ब्रुवन्ति ददाति ददति बिभेति बिभ्यति जुहोति जुह्वति इदानीं शत्रुप्रत्ययान्तं वदतु सो रुदन्ति
रुदन्
रुदन्
ब्रुवन्
अन्येषु वचनेषु
रुदन्तौ रुदन्तः
रुदन् रुदन्तौ रुदन्तः
ब्रुवन् ब्रुवन्तौ ब्रुवन्तः
ब्रुवन् ब्रुवन्तौ ब्रुवन्तः
ददति ददत् ददत् ददन्तौ ददतः
ददत् ददतौ ददतः
ददत् ददतौ ददतः बिभ्यत् बिभ्यत्
बिभ्यतौ
बिभ्यतौ बिभ्यतः
बिभ्यत् बिभ्यतौ बिभ्यतः
बिभ्यतः जुह्वत् जुह्वतौ जुह्वतः
सम्यक् जुह्वत् जुह्वतौ जुह्वतः कः विशेषः यत्र बहुवचनरूपे नकारः नास्ति सो ददाति ददति बिभेति बिभ्यति जुहोति जुह्वति सो बहुवचनरूपे नकारः नास्ति चेत् शत्रुप्रत्ययान्तरूपे अपि नकारः न भवति सो ददन् ददन्तौ ददन्तः इति न भवति ददत् ददतौ ददतः बिभ्यत् बिभ्यतौ बिभ्यतः जुह्वत् जुह्वतौ जुह्वतः सो तत्तु बहुवचनरूपे यत्र नकारः न भवति सो तत्र शत्रन्ते अपि नकारः न भवति सो विशेषधातुः अतः विशिष्टं रूपं भवति एतत् स्मर्तव्यम् सो अग्रे वाक्यानां योजनम् अन्ये केऽपि वक्तुमिच्छन्ति यैः एतावता नोक्तम् अत्र केचन प्रश्नाः सन्ति तत् उत्तरं दत्वा अग्रे गच्छामः तत्र आरूढवन्तः इति भवेत् किल इति पृष्टम् आम् तत्तु टङ्कनदोषः टैपिङ्ग् एरर् इति उक्तं तदेव ददत् इत्यस्य प्रथमा द्वितीया विभक्तौ पुल्लिङ्गे नपुंसकलिङ्गे च समानं वा इति एकवचनरूपं समानं द्विवचने बहुवचने भेदः भवति सो नपुंसकलिङ्गस्य रूपाणि अग्रिमवर्गे पश्यामः तदा ज्ञायते सो अग्रे वयं पुल्लिङ्गम् अग्रिमवर्गे नपुंसकलिङ्गरूपं भवति तत् स्वयं समाप्य अनन्तरं स्त्रीलिङ्गरूपाणि अपि जानीमः जुहोति इत्यस्य अर्थः जुहोति होमं करोति यज्ञे हविः अर्पयति इत्यर्थः टु पर्फार्म् अ सेक्रिफैस् इत्यर्थः रुद्धातुः कृधातुः समानगणः वा इति न रुद्धातुः द्वितीयगणस्य रोदिति रुदितः रुदन्ति कृधातुस्तु अष्टमगणे अस्ति करोति कुरुतः कुर्वन्ति सो तत्र धातुषु दशगणाः सन्ति दशसु गणेषु रूपे भेदः भवति अत एवं विशिष्टाः धातवः यत्र पृथक् पृथक् दृष्टवन्तः तत्र गणम् आश्रित्य एव भेदः भवति रूपे जुहोति इत्यस्य जुह्वत् इति रूपम् इदानीं वाक्यानि पश्यामः रमा
शिशुः रुदन् मातरम् आह्वयति
शिशुः रुदन् मातरम् आह्वयति बहुवचने
शिशवः रुदन्ति मातरम् आह्वयन्ति
रुदन् रुदन्तौ
रुदन्तः
रुदन्तः शिशवः
रुदन्तः मातरम् आह्वयन्ति
रुदन्तः मातरम् आह्वयन्ति सम्यक् अग्रिमम् अन्ये केऽपि पुष्पा विश्वनाथन्
सज्जनः सत्यं ब्रवीति यशः प्राप्नोति सज्जनः सत्यं ब्रुवन् यशः प्राप्नोति
सम्यक् सज्जनः सत्यं ब्रुवन् यशः प्राप्नोति
सज्जनाः सत्यं ब्रुवन्तः यशः प्राप्नुवन्ति
सम्यक् सज्जनाः सत्यं ब्रुवन्तः यशः प्राप्नुवन्ति उत्तमम् अग्रे अविनाश
धनिकः धेनुं दास्यति नमस्करिष्यति धनिकः धेनु ददत् नमस्करिष्यति
सम्यक् धनिकः धेनुं ददत् नमस्करिष्यति
धनिकाः बहुवचन धनिकाः धेनुं ददतः नमस्करिष्यन्ति
सम्यक् धनिकाः धेनुं ददतः नमस्करिष्यन्ति उत्तमम् सो यथा मया उक्तं भूतकाले भविष्यत्काले उभयथापि शत्रु प्रत्ययान्तस्य प्रयोगः भवति. सो ददत् ददतौ ददतः. अग्रे वीरभद्रराव.
बालः सर्पात् भीतवान् धावितवान्. एकवचनं बालः सर्पात्
बिभेति बिभीतः बिभ्यति.
बिभ्यन् बिभ्यत् धावितवान्.
बालः सर्पात् बिभ्यत् धावितवान्.
बहुवचनं बालाः सर्पात् बिभ्यतः धावितवन्ति.
बालाः सर्पात् बिभ्यतः धावितवन्तः. सो बिभेति बिभीतः बिभ्यति. नकारः नास्ति अतः बिभ्यत् बिभ्यतौ बिभ्यतः. एतेषां विशिष्टक्रियापदानां शत्रन्तरूपाणि ज्ञातव्यानि सन्ति पठ्यपुस्तके. एतावन्ति सन्ति. सो एक्चुलि देर् आर् ए कपल् मोर् एक्स्ट्रा इन् वाट् वी डिड् बट् दीस् आर् द स्पेशल् क्रियापदस् फार् विच् यू हेव् टु नो द शत्रन्त फार्म्स्. इदानीम् अत्र रिक्तं स्थानं भवति पूरणीयम्. रिक्तं स्थानं पूरणीयं. तत्र कंसेषु बहुवचनरूपं दीयते लट्लकारे. सो तस्य शत्रन्तरूपम् उपयुज्य स्थानं पूरणीयम्. लता भगिनि. लता भगिनी, यू हैव टू अनम्यूट योरसेल्फ.
वन सेकंड. नर्तकाः गीतं शृण्वन्तः नर्तितवन्तः.
सम्यक्. गीतं शृण्वन्तः नर्तितवन्तः. उत्तमम्. सो महालक्ष्मी. छात्राः सॉरी
छात्राः रुदन् आटं रुदन् रुदन्तः पाठं लिखितवन्तः.
सम्यक्. छात्राः रुदन्तः पाठं लिखितवन्तः. उत्तमम्. क्षम्यताम्, अद्य बहवः टङ्कनदोषाः सन्ति. ह्यः रात्रौ उट्टङ्कितमित्यतः मेनी टैपिङ्ग् एरर्स्. ऐ विल् करेक्ट् देम् बिफोर् ऐ अप्लोड्. सो छात्राः रुदन्तः पाठं लिखितवन्तः. निर्मला राजशेखर.
Can you hear me? श्रूयते वा?
आम् श्रूयते.
भक्ताः जपं कुर्वन्तः आनन्दम् अनुभवन्तः.
अनुभवन्ति.
आनन्दम् अनुभवन्ति.
सम्यक्. भक्ताः जपं कुर्वन्तः आनन्दम् अनुभवन्ति. पुष्पा विश्वनाथन.
अर्चकाः तीर्थं दत्ततः उपविष्टवन्तः सन्ति.
अर्चकाः तीर्थं दत्ततः उपविष्टवन्तः सन्ति. उत्तमम्. रामकृष्णराव.
विद्यार्थिनः शिक्षकेभ्यः विभ्यतः गृहपाठं समाप्तवन्तः.
सम्यक्.
समापितवन्तः.
शिक्षकेभ्यः विभ्यतः गृहपाठं समापितवन्तः. विभ्यतः गृहपाठं समापितवन्तः. नेक्स्ट् रमा.
अभिमानिनः पक्षस्य ध्वजम् आपणेषु बध्नन्तः अग्रे गतवन्तः
अभिमानिनः पक्षस्य ध्वजम् आपणेषु बध्नन्तः अग्रे गतवन्तः सो फालोयर्स् द पार्टी फ्लाग् सो कदाचित् कार्यक्रमः अस्ति चेत् सर्वेषु आपणेषु तत् ध्वजं बद्ध्वा अग्रे गतवन्तः इत्यर्थः सो बध्नन्तः अग्रे गतवन्तः सो एवं विशिष्टधातूनां शतन्तरूपाणि भवन्ति अत्र अन्तिमः अभ्यासः अत्र कंसेषु कानिचन रूपाणि दत्तानि तेषां शत्रन्तम् उपयुज्य रिक्तस्थानं पूरणीयं सो अर्थम् आश्रित्य किम् उपयोक्तव्यम् इति चिन्तनीयम् एनिबडि एल्स् अदर् देन् दोस् हू हेव् आल्रेडि अटेम्प्टेड् शैलजा
नमो नमः सः कार्यं कर्तुं शक्नुवन् अपि तूष्णीं स्थितवान्
सम्यक् सः कार्यं कर्तुं शक्नुवन् अपि सो शक्नोति इति अस्ति शक्नोति शक्नुतः शक्नुवन्ति सो शक्नुवन् अपि तूष्णीं स्थितवान् उत्तमम् अग्रिमम्
शङ्करः प्रादेशिकभाषां जानन् अपि स्वभाषया एव उत्तरितवान्
उत्तमं सो शङ्करः प्रादेशिकभाषां जानन् अपि सो रीजनल् लेङ्ग्वेज् जानन् अपि स्वभाषया एव उत्तरितवान् सो हि आन्सर्ड् इन् हिस् ओन् लेङ्ग्वेज् अग्रिमम् अन्ये अविनाश
सर्वेशः नूतनान् अनुभवान् प्राप्तवन्त
प्राप्नोति प्राप्नुतः
प्राप्नुवन्ति प्राप्नुवन्त कार्यश्रेयाम् अग्रे गतवान्
सम्यक् सर्वेशः नूतनान् अनुभवान् प्राप्नुवन् कार्यश्रेण्याम् अग्रे
गतवान्
सो गेनिङ्ग् न्यू एक्स्पीरियन्स् हि वेण्ट् अहेड् सो प्राप्नुवन्
पङ्गुः दण्डं गृह्णन् मार्गे चलति
सम्यक् पङ्गुः दण्डं गृह्णन् मार्गे चलति पङ्गुः यस्य पादे समस्या अस्ति यः चलितुं न शक्नोति सः पङ्गुः मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् इति श्लोके अस्ति पङ्गुः सो सः दण्डं गृह्णन् मार्गे चलति अग्रिमम् लता भगिनी
श्रूयते वा भगिनी नर्तकः पादयोः किङ्किणीं भग्नन् शीघ्रं धावितवान् I don't have any book. I am guessing because kinkini means his chikai.
Correct. Samaya. So, padayoh kinkinim badhanan shigram dhavitavan. So, badhanan, as he was saying, he ran.
Dushtat karye dosham kritavan. Dushtat pibhyat. So, bind that. Okay. So, dushtat pibhyat karma karaha karye
दुष्टात् बिभ्यत् कर्मकरः कार्ये दोषं कृतवान्. सम्यक्. तत्रापि पूर्वतनवाक्ये धावितवान्. ऐ डिन्ट् रियलैज् इट् बट् टु मेनि एरर्स् टुडे. शीघ्रं धावितवान् इति एतत् घकारः आगतः. सो एवं शत्रन्तेषु विशिष्टधातूनां रूपाणि अद्य ज्ञातानि. तेषाम् अभ्यासं कुर्वन्तु. अभ्यासः अपि भवति अग्रिम वर्गे. नपुंसकलिङ्गे कथं रूपाणि भवन्ति, द्वितीयादिविभक्तिषु कथं रूपाणि भवन्ति इति पश्यामः. काव्यांशेषु गतसप्ताहे शिशुपालवधस्य काव्यकथा आरब्धा, किल. शिशुपालवधम् इति पञ्चसु महाकाव्येषु अन्यतमं भवति. महाकविना माघेन रचितम् इदं काव्यं. सो नायकः श्रीकृष्णः. शिशुपालस्य वधः एव कथायाः मुख्यः भागः. तत्र नारदस्यागमनम् इति प्रथमः भागः दृष्टः, यत्र नारदः इन्द्रस्य सन्देशं गृह्णन् द्वारकाम् आगच्छति. सो इन्द्रस्य सन्देशं कृष्णाय श्रावयति. किमिति, एवं पूर्वकाले हिरण्यकशिपुः आसीत् लोकपीडकः. यं भवान् नरसिंहावतारं गृहीत्वा मारितवान्, ततः रावणः अभूत् सः. तदा भवान् श्रीरामावतारं गृहीत्वा तं मारितवान्. इदानीं स एव असुरः शिशुपालस्य रूपेण लोकान् पीडयति, कृपया तं निगृह्णातु इति इन्द्रः नारदद्वारा कृष्णाय सन्देशं प्रेषितवान्. द्वितीयः भागः मन्त्रालोचनम् इति आसीत्. नारदः निवर्तते तावति युधिष्ठिरः अपि एकं सन्देशं प्रेषयति, मया राजसूययागः क्रियते, यज्ञे विघ्नाः भवेयुः, अतः कृपया भवान् आगच्छतु इति युधिष्ठिरः सन्देशं प्रेषयति. कार्यद्वये सम्प्राप्ते किं करणीयम् इति चिन्तयन् श्रीकृष्णः उद्धवबलरामाभ्यां सह मन्त्रालोचनं करोति. अत्र आदौ शिशुपालवधं वधार्थं मया गन्तव्यं वा, युधिष्ठिरस्य यज्ञार्थं गन्तव्यं वा इति विचारयितुं कृष्णः सभाम् एकाम् आहूय उद्धवबलरामाभ्यां सह चर्चां करोति. प्रायः शिशुपालस्य वधार्थमेव गन्तव्यं, यतोहि युधिष्ठिरस्य वीराः अनुजाः सन्ति, तेषां साहाय्येन सः यज्ञं कर्तुं शक्नोति. किन्तु वर्धमानः शत्रुः न उपेक्षणीयः, अतः मया शिशुपालस्य वधार्थं गन्तव्यम् इति अहं चिन्तयामि. भवन्तौ किं वदतः इति कृष्णः पृच्छति. इतः अग्रे अद्य पठामः. सो तृतीयः भागः, तस्य इन्द्रप्रस्थप्रयाणम् इति शीर्षकं दत्तम्. ये पठितुम् इच्छन्ति कृपया हस्तमुन्नयन्तु. सुधा.
इन्द्रप्रस्थप्रयाणम्. श्रीकृष्णस्य वचनं श्रुत्वा बलरामः स्वाभिप्रायं कथितवान्, इदानीं चैत्रयात्रा उचिता न तु यज्ञयात्रा, शिशुपालः केवलं लोकपीडको न, त्वापि शत्रुः. पूर्वः सः रुक्मिणी तव
भगिनि अन्ये पठन्तु. श्रीकृष्णस्य वचनं श्रुत्वा बलरामः स्वाभिप्रायं स्वस्य अभिप्रायम् अहं किं चिन्तयामि इति उक्तवान्। इदानीं जैत्रयात्रा, जैत्रयात्रा इत्युक्ते जयार्थं कैंपेन इति कथ्यते। सो दिग्विजयार्थं यात्रा क्रियते स्म राजभिः, भिन्नासु दिक्षु गत्वा, अथवा कञ्चित् शत्रुं पराजेतुं गच्छन्ति, तत् जैत्रयात्रा इति उच्यते। अतः इदानीं जैत्रयात्रा उचिता, न तु यज्ञयात्रा। यदा एतावत् मुख्यं कार्यमस्ति तत्र यज्ञं गत्वा प्रयोजनं नास्ति, अतः युद्धार्थमेव गन्तव्यम्। शिशुपालः केवलं लोकपीडकः न, तव अपि शत्रुः। अस्तु, शिशुपालः कश्चित् कुत्रचित् सः किमपि करोतु, अस्माकं सम्बन्धः नास्ति इति तु न, तव अपि सः शत्रुः। कथम् इति सः अग्रे वदति। अग्रे महालक्ष्मी,
पूर्वं सः रुक्मिणी तव भार्याम् अपेक्षितवान्, सा न प्राप्ता, अतः उपितः सः सदा तवाहितमेव, तव अहितमेव चिन्तयति। एवं बहुवारं सः अपराधं कृतवान्, तस्य क्षमा नोचिता, न उचिता, प्रथमं सः अन्तव्यः।
सो पूर्वं सः, सः कः?
शिशुपालः,
शिशुपालः रुक्मिणीं तव भार्याम् अपेक्षितवान्। रुक्मिणीविवाहस्य कथा एव अस्ति। वस्तुतः रुक्मिण्याः अग्रजः रुक्मिः शिशुपालेन सह तस्याः विवाहं कर्तुम् इच्छति, किन्तु रुक्मिणी कृष्णमेव इच्छति इत्यतः कृष्णं प्रतिपत्रं लिखति, कृष्णः गत्वा ताम् आनयति। सा न प्राप्ता, शिशुपालेन न प्राप्ता, कृष्णः बलरामः युद्धं कृत्वा तं पराजयन्ते। अतः कुपितः सः सदा तव अहितम् एव चिन्तयति, कथं तस्य कृष्णस्य विनाशः कर्तव्यः इत्येव शिशुपालः सर्वदा चिन्तयति। एवं बहुवारं सः अपराधं कृतवान्, तस्य क्षमा न उचिता, न युज्यते, इतोपि तस्य अपराधानां मर्षणं सहनं न कर्तव्यं, प्रथमं सः हन्तव्यः। अग्रे स्वामिनाथन्,
युधिष्ठिरो यागं करोतु अथवा त्यजतु, अस्माकं स्वार्थं वयं साधयाम इति दृढं स्वाभिप्रायं प्रकाशितवान्। सभामन्दिरे प्रतिध्वनिः श्रुतः, चित्तदेवताः अपि बलरामस्य अभिप्रायमेव उक्तवत्यः इव। युधिष्ठिरः यागं करोतु अथवा त्यजतु, अस्माकं स्व अर्थं वयं साधयाम इति दृढं स्व अभिप्रायं प्रकाशितवान्। सभामन्दिरे प्रतिध्वनिः श्रुतः,
प्रतिध्वनिः
श्रुतः
इत्यस्य कः अर्थः? प्रतिध्वनिः
तर्वात्
सभामन्दिरे
प्रतिध्वनि, चित्रदेवताः अपि बलरामस्य अभिप्रायमेव उक्तवत्यः इव। So the angels
अयं वस्तुतः कवेः कल्पना एव। यदा बलरामः अत्यन्तम् उच्चैः वीर्येण वदति, तस्य वचनं तस्मिन् सभामण्डपे सर्वत्र प्रतिध्वनति। तत् कथमासीत् इत्युक्ते, तत्र भित्तिषु चित्राणि भवन्ति किल, चित्रे विद्यमानाः देवताः अपि बलरामस्य वचनमेव अनुमोदयन्तः, पुनः पुनः कथयन्ति इव आसीत्। एवम् अत्यन्तं ओजसा वीर्येण बलरामः उक्तवान्। किमुक्तवान्? युद्धार्थं गच्छामः, बलरामस्य युद्धे एव प्रीतिः, अतः युधिष्ठिरस्य यज्ञः भवतु वा न वा, अस्माकं किम्? अस्माकम् इदानीं शत्रुविनाशः करणीयः अतः तद्वयं कुर्मः इति उक्तवान् अग्रे राजेश्वरी
अनन्तरम् उद्धवः स्वमतं कथितवान् केवलम् उत्साहो न कार्यसाधकः क्षमा अत्यन्तम् आवश्यकी त्वरा न कर्तव्या अल्पस्य विषयस्य कृते बहु प्रयासो नोचितः मूषिकः गृहीतुं पर्वतस्य मूषकं गृहीतुं पर्वतस्य खननम् इव I can tell in English only. okay, next, the Uddhava was telling that for small thing you cannot do a big. Sorry, please. Kevalam utsaho na. If you are excited, then it is not enough. Shama atyantam avashyakam. Now it is to...
Shama.
Shama means to... Oh,
patience.
Tamila, patience. You should Purumai. Have patience with... Purumai. You should have patience with this. For small thing, you cannot have a... ஒரு ஒரு மலையை ஒரு எலியை பிடிக்கிறதுக்காக மலையை குடைய முடியாதுன்னு சொல்ற சாரி
கேவலம் உற்சாக ந காரிய சாதக உற்சாகன ஆம் வயம் யுத்தம் குருமா இது ஜட்டி பிரஸ்தானம் குரும சேத் தேன காரியம் ந சித்தியதி அத क्षमा अत्यन्तम् आवश्यकी क्षमा सहना तो सोढव्यं त्वरा न कर्तव्या त्वरा हेस्ट तो अत्यन्तं वेगेन कार्यार्थं न गन्तव्यं अल्पस्य विषयस्य कृते बहु प्रयासः न उचितः शिशुपालस्य वधः इति महान् विषयः न तव कृते तव श्रीकृष्णस्य कृते एव बहु महान् इति किमपि नास्ति बहु अल्पः विषयः मूषकं ग्रहीतुं पर्वतस्य खननम् इव तमिळ्भाषायां प्रादेशिकभाषासु बहुषु इयं लोकोक्तिः अस्ति सो मूषकस्य ग्रहणम् इति अत्यन्तम् अल्पं कार्यं तदर्थं पर्वतस्य खननम् सो महान् पर्वतः तस्य पर्वतस्य महता श्रमेण खननं कृत्वा अन्ते किं लब्धम् किमपि रत्नं वा निधिः वा लब्धानि वा न केवलं कश्चित् मूषकः लब्धः इति चेत् तस्य तादृशस्य प्रयासस्य अर्थः न भवति इति अपि च पुनः अनुवर्तयति कः उद्धवः रामानुजम्
अपि च शिशुबालस्य समीपे राजसमूहः अस्ति अतः सः जेतुं न सुलभः किञ्च भवान् यागाय यदि न गच्छति तदा बन्धुद्रोहो भवति यागे एव युद्धावकाशो भविष्यति तत्रैव शिशुपालः हन्तव्यः शिशुपालो हन्तव्यः अपि च शिशुपालस्य समीपे राजसमूहः अस्ति I'll try to explain, tell in English maybe. near Shishupala is Rajasamugam is there. Therefore, Saha jetum na sulabha, so it's not easy to defeat him. Kincha bhavan yagaya yadi na gacchati, तदा बंधुद्रोहो भवति बंधुद्रोहः भवति सो इफ यू डोंट गो फॉर द यागा रिक्वेस्टेड बाय युधिष्ठिरा देन बंधुद्रोहः विल हैपन यागे एव युद्ध यागे एव युद्धावकाशः भविष्यति यागे एव युद्ध अवकाशः ओके युद्ध अवकाशः भविष्यति इज दैट राइट
करेक्ट
ओके युद्ध अवकाशः भविष्यति I don't know what it means. Yage eva yuddha avakashah bhavati.
Yuddhasya avakashah, opportunity for fighting. Shishupalaha adhutaha. Yadi yajnaha iti uttamam karyam, saha tushnim na bhavati. Saha tatreva kimopi akaryam karvati, tada tena vyajena, tatreva ishishupalena saha yuddham kartum shakyumaha.
Okay. So tatreva, tatreva, शिशुपालः हन्तव्यः तत्र एव देन् ओन्ली शिशुपाल केन् बि किल्ड्
हन्तव्यः शिशुपाल मस्ट् बि किल्ड् सः तत्रैव नाम यागसमये यदा सः सर्वेषां पुरतः किमपि अकार्यम् आचरति तदा तत्रैव यागसमये एव शिशुपालस्य वधः कर्तुं शक्यते इति उद्धवः कथयति बलरामेण किमुक्तम् इदानीमेव युद्धार्थं गच्छामः इति किन्तु राजसमूहः बहवः राजानः शिशुपालस्य साहाय्यार्थं सन्ति जरासन्धः एव आसीत् अनन्तरम् अन्ये अपि बहवः राजानः शिशुपालस्य साहाय्यार्थम् आसन् अतः सः जेतुं न सुलभः सुलभतया शिशुपालस्य जयः न भवति युद्धार्थं गत्वा तस्य जयः इति तु कष्टं तदपेक्षया अपि च किं भवति यागाय यदि न गच्छति बन्धुद्रोहः बन्धुः अस्ति युधिष्ठिरः साहाय्यं प्रार्थितवान् तस्य साहाय्यं यदि न क्रियते तर्हि द्रोहः सो बिट्रेयिङ्ग् युवर् ओन् पीपल् इति भवति अतः यागे युद्धस्य अवकाशः भविष्यति तत्रैव शिशुपालस्य वधः भवति इति एतत् सर्वम् उद्धवः वदन्नस्ति रामकृष्णराव
पूर्वं भवान् शिशुपालस्य अम्बायै एकं प्रतिज्ञावचनं दत्तवान् शिशुपालस्य शतम् अपराधं मृष्यामि इति यदि ततः पूर्वं तस्य हननं भविष्यति तर्हि तव प्रतिज्ञाभङ्गो भविष्यति पूर्वं पूर्वकाले भवान् कृष्ण शिशुपालस्य अम्बायै शिशुपालस्य मातां एकं प्रतिज्ञावचनं दत्तवान् शिशुपालस्य शतम् अपराधं मृष्यामि शिशुपालः शत अपराधं करोति चेत् एक्स्क्यूज्
सत्यम् अहं क्षमां करोमि
तदनन्तरमेव शिशुपालस्य अपरम् अपराधं कृत्वा चेत् तस्य हनामि इति भविष्यति तर्हि तव प्रतिज्ञाभङ्गं भविष्यति if he does 101 mistakes then he breaches his promises so krishna can be killed him
yadi tatah purvam tatah purvam ityukte saha shatam aparadhani kuryat tatah purvam eva before 100 if you kill him
ananam yadi tatah purvam tatah yes यदि ततः पूर्वं तस्य हननं भविष्यति तर्हि तव प्रतिज्ञाभङ्गो भविष्यति कृष्णः शतः अपराधं पूर्वं चेत् हननं करोति चेत् तदानीं प्रतिज्ञाभङ्गं भवति भविष्यति
इति कथयति तत् शिशुपालस्य जननकालस्य एव कथा अस्ति शिशुपालः यदा जातः तदा अत्यन्तं विकृतः शिशुः आसीत् इति. तस्य चत्वारः हस्ताः, त्रीणि नेत्राणि इति किमपि किमपि विकारः आसीत्. तदा केनचित् उक्तम् आकाशवाण्या वा केनचित् सन्यासिना वा उक्तं, यस्य भवती शिशुपालं शिशुम् अन्येषां हस्ते ददातु, यदा कस्यचित् हस्ते ददाति तदा तस्य एक्स्ट्रा अङ्गानि सर्वाणि पतन्ति, सः सामान्यः द्रष्टुं सः सुन्दरः भविष्यति. किन्तु तस्यैव यः यस्य हस्ते दत्त्वा तस्य रूपं सम्यक् भवति तेनैव तस्य मरणं भविष्यति इति उक्तमासीत्. अतः ये केऽपि गृहम् आगच्छन्ति शिशुपालस्य माता शिशुं तस्य हस्ते ददाति. कृष्णः अपि आगच्छति, शिशुपालः अपि बन्धुः एव कृष्णस्य. शिशुपालस्य माता कृष्णस्य अत्तै किमपि सम्बन्धम् अहम् एक्साक्ट्लि न जानामि, सापि बन्धुः. अतः यदा कृष्णः आगच्छति शिशुपालं तस्य हस्ते ददाति तदा तस्य अङ्गानि सम्यक् भवन्ति. तदा तस्य माता जानाति ओहो तर्हि कृष्णः एव शिशुपालं मारयति. तदा सा प्रार्थयते कृपया किञ्चित् तस्य अपराधानां क्षमां करोतु. तदा कृष्णेन उच्यते अस्तु शतम् अपराधान् यावत् सः करोति तावदहं सहे तस्य प्रतीकारं न करोमि. अतः तावत्पर्यन्तं भवता प्रतीक्षणीयं, नो चेत् प्रतिज्ञाभङ्गः भविष्यति इति उद्धवः स्मारयति. अन्ते कथयति राव.
अतः यागयात्रा उचिता,
क्षम्यताम्,
तदा कार्यद्वयमपि भविष्यति इति उद्धवः युक्तिवचनम् उक्तवान्. श्रीकृष्णः उद्धवस्य वचनेन सन्तुष्टो अभवत्. सः यज्ञयात्रां कर्तुं निश्चितवान्, इन्द्रप्रस्थं प्रति प्रयाणम् आरब्धवान् च. I'll try to say in Sanskrit, but in between I message to English. उद्धवः कथ्यति यागयात्रा युधिष्ठिरस्य यागार्थं गमनम् उचितं. तदा द्वयं कार्यं शिशुपालवधं यागरक्षणं द्वयमपि भविष्यति इति उद्धवः युक्तिवचनम् उक्तवान्. What is the word for advice? Good word. उपदेशं वचति उक्तवान् श्रीकृष्णः. भगवान् कृष्णः उद्धवस्य वचनेन आनन्दो अभवत्. सः यज्ञयात्रां कर्तुं युधिष्ठिरस्य यागार्थं गन्तुं निश्चयं करोति. इन्द्रप्रस्थं प्रति प्रयाणम् आरब्धवान्. He starts the journey towards Indraprastha.
So, किं मुख्यं, यागयात्रा उचिता. यदि यज्ञार्थं गच्छति यज्ञस्य रक्षणमपि भवति, तत्रैव शिशुपालस्य वधः अपि भवति, कार्यद्वयमपि साधयितुं शक्यते इति उक्तवान्. तदङ्गीकृत्य कृष्णः प्रस्थितः. अग्रे एतं भागम् आश्रित्य प्रश्नाः सन्ति. बलरामः श्रीकृष्णं किम् उक्तवान्? अविनाश.
Balarama Uktavan Shishupala Hananam Karo Karishyati
Kurmah, Tava Kartavyam, Shishupala Vadhaha Kartavyaha
Kartavyam, ya.
Iti vadati ataha vadham kartumeva gacchamaha iti vadati kutra yuddhavakashah bhavishyati iti uddhavah uktavan mahalakshmi
yage yuddhavakashah bhavishyati iti uddhavah uktavan
yage yuddhavakashah bhavishyati shri krishnah kim pratignya vachanam dattavan atit lata
Shatam aparadam Sri Krishnah Shishupalasi ambaye pratignya vachanam ekam pratignya vachanam shatam aparadam
savasahe shata aparadhanam kshamam karomi pratignya vachanam Nirmala Shri Krishnaha Kena Santushtaha Jata
Shri Krishnaha Uddhavasya Vachanena Santushtaha Abhavat
Sammek Antimaha Prashnaha Shri Krishnaha King Kartum Nishchitavan Nageshwari
Shri Krishna kim kartum nichitavan Shri Kartaha Shri Krishna yagnya yatra kartum nichitavan
yagnya yatram kartum nichitavan samik so asmin bhage balaramasya uddhavasya cha vachanamasti balaramaha vadati yuddhartham gacchamaha iti kintu uddhavaha vadati idani meva yuddham mastu yadartham gacchamaha tatraiva yuddhasya avakashah bhavati Tena karya dvayam api siddhyati iti Krishnaha uddhavasya vachanam angi kritya yajnyartham rajasuya yagartham gantum nishchayam karoti. Agrimaha bhagaha prayana varnanam. Tatra mahakavye mukhyaha bhagaha varnanam bhavati. Mahakavyasya lakshane eva uchyate. So prayaha vimshati. Vidhanam varnanam kartavyam mahakavye itseva asti yuddhasya prayanasya suryodayasya samudrasya parvadasya itsevam bhinna bhinna ritya varnanam kartavyam itseva mahakavyasya lakshaneshu asti ataha atra krishnasya prayanasya varnanam Bahu dirgharupena iva kriyate madhyena tasya sankshepah kathayam abhinadiyate Avinash
Sri Krishna rajasuya yagaya indraprastham gantum nishchitvan prayanam arabdham Sri Krishnena saha sarve yadavah parijanah anthapurastriyascha prastitah I will say in English, Sri Krishna for Rajasuri Yaga, he decided to go to Indraprastha. He started his journey and with him, all Yadavas and his relatives, Parijana, and even his ladies, Antapura ladies were accompanying him.
Correct. Amit. So Yadavaha, Parijanaha, Tasya Sevakaha, Anya तस्य सेवार्थं ये सन्ति ते अन्तःपुरस्त्रियः. सो तस्य पत्न्यः सर्वे अपि प्रस्थानं कुर्वन्ति कुत्र यागार्थं गन्तुं. महालक्ष्मी
वारकानगरात् श्रीकृष्णस्य प्रयाणं. तन्नगरं मनोहरं. नगरस्य मार्गेषु रत्नानां राशिरेवासीत्. द्वारकानगरं समुद्रतीरे अस्ति. समुद्रतीरमार्गेण श्रीकृष्णस्य प्रयाणम्. He started from Dwaraka. Tannagaram, that is beautiful city. Nagarasya margeshu ratnanam rashireva. That is the ratnam, the piles of ratnas on the streets of Dwaraka. Dwaraka nagaram samudra tire asti. It is on the banks of samudra. Samudra tira margena Sri Krishnasya prayana. That is, they were going on the seaside.
The beach. Eta sarvamupi samyak tatra vivriyate mahakavya iti jnatavya. Tatra ekena vakyena yaduchyate. Kavya prayaha tadartham panchashat shlokaha bhavyayuhu. Shishupala, Magha, Shishupala vadhasya karta maghaha. तथैव प्रसिद्धः. बहु सम्यक् वर्णनं करोति अत्र एकेन वाक्येन नगरं मनोहरम् इति. तत्र द्वारकायाः महद्वर्णनमस्ति वस्तुतः काव्ये. रत्नानां राशिः एव आसीत्. राशिः उन्नतं गोपुरं रत्नानामेव राशिः. इदानीं वस्तुतः समीपकाले विजयनगरसाम्राज्यविषये अपि उच्यते. यदा मार्गेषु गच्छामः मार्गस्य पार्श्वे इदानीं यथा यदि मार्गे गच्छामः तत्र शाकानि भवन्ति फलानि भवन्ति राशीकृत्य विक्रयणं कुर्वन्ति तथा तदा रत्नानां राशिः. सो गच्छन्ति चेत् तत्र वज्राणाम् एकः राशिः इत्युक्ते तावत् लभ्यते इत्यर्थः. अबण्डेन्स् आफ् प्रेशियस् स्टोन्स्. सो यु केन् फैण्ड् heaps, rashihi itse heap itchatta. So heaps of diamonds and rubies and pearls on the streets. Agre. Anya kepi patitum icchanti. Yehi eta vatana patitum.
ततस्थे सर्वेपि रैवतकपर्वतस्य समीपम् आगतवन्तः. सः पर्वतः अपि रमणीयः एव. पर्वतस्य सौन्दर्यं पश्यन्तः ते सर्वे अपि तत्र एव जलक्रीडासु मग्नाः अभवन्. ततः सर्वे ते प्रयाणं कुर्वन्तः यमुनानदीसमीपम् अगच्छन्. यमुनां तीर्त्वा ते इन्द्रप्रस्थात् बहिरागताः. रैवतकपर्व पर्वतस्य नाम
रैवतकः.
ते सर्वे अपि तत् पर्वतस्य समीपम् आगतवन्तः. समीपम् सन्निकर्ष. सः पर्वतः अपि रमणीयः एव. पर्वतः अपि मनोहरः एव इत्यर्थं. पर्वतस्य सौन्दर्यं पश्यन्तः अगेन् शत्रन्त बहुवचन प्रथमा विभक्ति. सौन्दर्यं पश्यन्तः ते ते जनाः कृष्णः परिजनाः यादवाः इति ते जनाः सर्वे अपि पर्वतस्य सौन्दर्यम् अपश्यन् तत्र एव जलक्रीडासु मग्नाः अभवन् जलक्रीडासु निमग्नाः च सन्तुष्टवन्तः क्रीडा अर्थ
बहुकालं तत्रैव पर्वतस्य समीपे जलम् आसीत् तत्र ते बहुकालं क्रीडितवन्तः इत्यर्थः
ततः सर्वे ते प्रयाणं कुर्वन्तः यमुना नदी समीपम् अगच्छन् I don't understand. Yamuna Nadi is near Dwaraka? I didn't understand.
No, no, they are traveling from Dwaraka to Indraprastha.
Ah, okay, okay. I lost the story. Okay.
Prayanasya Varnanam.
Oh, so Prayana.
Samudra Matitya Agataha, Agre Parvataha, Tadapi Atitya Agachanti Nadi. So Nadi Matitya Agachanti.
So Dwarakat Indraprastha Prati Agachan. यमुनां तीर्त्वा ते इन्द्रप्रस्थात् बहिः आगताः आफ्टर् दट् दे रीच् दि औट्स्कर्ट्स् आफ् इन्द्रप्रस्थ
इन्द्रप्रस्थः अद्यतन देहली अतः यमुना नद्याः तीरे अस्ति सो यमुना नदीम् अतीत्य ते इन्द्रप्रस्थस्य सीमां प्राप्तवन्तः सो दे रीच् द औट्स्कर्ट्स् आफ् इन्द्रप्रस्थ इन्द्रप्रस्थात् बहिः आगताः बहिःशब्देन सह पञ्चमी विभक्तेः प्रयोगः भवति सो इन्द्रप्रस्थात् बहिः आगताः सो इन्द्रप्रस्थस्य बहिर्भागं प्राप्तवन्तः इत्यर्थः अग्रे निर्मला
श्रीकृष्णस्य आगमनवृत्तान्तः राजधान्यां प्रसृतः युधिष्ठिरः महान्तम् आनन्दम् अनुभूतवान् परिवारसहितस्य श्रीकृष्णस्य स्वागताय सः राजा अनुजैः सह सहसा प्रस्थितः श्रीकृष्ण आगमनवृत्तान्तः राजधान्यां प्रस्थितः I'll say it in English. श्रीकृष्णस् all of them they entered the capital, the राजधान्यां
arrival, the news of their arrival. आगमनवृत्तान्तः आगमनस्य वृत्तान्तः वार्ता सो द न्यूस् आफ् देयर् अरैवल् राजधान्यां
रीच् द केपिटल् धन्यवादः एण्ड् युधिष्ठिरः वास् वेरि हेपि हि एक्स्पीरियन्स् ग्रेट् जाय् हियरिङ्ग् दट् कृष्ण एण्ड् हिस् पीपल् हेव् अरैव्ड् एण्ड् अलाङ्ग् वित् हिस् फेमिलि मेम्बर्स् एण्ड् हिस् फ्रेण्ड्स् he went the raja along with his brothers he went to welcome Sri Krishna and his family
correct samyak so krishnasya swagataya sa raja sah raja saraga sandhi visargasya lopah anujai sah sahasa sahasa nama twaraya atyantam vegena sah prasthitah krishnasya swagatam kartum अन्तिमः भागः अस्य कथायाः अन्ये केऽपि पठितुमिच्छन्ति कल्याणकृष्ण
गुड् ईविनिङ्ग् कोशिश करूंगा इंद्रप्रस्थ इंद्रप्रस्थ नगरस्य बहिर्भागे श्रीकृष्ण परिवारः युधिष्ठिर परिवारश्च अमिलत् श्रीकृष्णः रथाद् अवतीर्य युधिष्ठिरं नमस्कृतवान् युधिष्ठिरः अपि श्रीकृष्णं प्रत्यालिङ्गितवान् प्रीत्या आलिङ्गितवान् ततः सर्वे अपि यागमण्डपं प्रति प्रस्थिताः on the outskirts of the Indraprastha city, Shri Krishna and his family and Yudhishthira and his family met. Shri Krishna stepped out of his vehicle and he said Kushala Prashnam to Yudhishthira, or what do you call it? Namaskaravan.
Namaskaram Kratan. Yudhishthira elder to
Yes, Yudhishthira Namaskar Yudhishthira Namaskaram Kratavan. Yudhishthira Api Sri Krishna Prati Alingadavan.
Pritya.
Oh, Pritya Alingadavan. With love he embraced him. Tataha Sarve Api Yagamandapam Prati Prasidat. Then all of them went towards the Yaga Mandapa.
So, Indra Yajasuya Yagartham Yaha Mandapaha, so the sacrificial place, so they go there. Atra Vitraha Prashnaha Santi Mantapahava Mandapahava iti Samskrite Mandapaha Itteva Mandapam Mandam Manda Shabdaha Eva. अतः मण्डपः इत्येव प्रयोगः सामान्यतः क्रियते अन्यः एकः प्रश्नः पठनसमये यथा अस्ति तथा पठनीयं वा सन्धिविच्छेदं कृत्वा पठनीयं वा इति सामान्यतः पठनकाले सन्धिविच्छेदं कृत्वा अर्थानुगुणं तत्र पास् गत्वा पठनीयम् स एव सर्वे सन्धयः विभक्तव्याः इति नास्ति किन्तु विसर्गसन्धिः यत्र अर्थः स्पष्टं प्रतिभाति युधिष्ठिरः अपि श्रीकृष्णं प्रीत्या आलिङ्गितवान् इति सन्धिविच्छेदं कृत्वा अर्थानुगुणं पठनीयं तदेव पठने लेखनं लिखितं भवति प्रायः सन्धिना सहितं किन्तु पठनसमये यथा श्रोतारः झटिति अर्थं ज्ञातुं शक्नुयुः तथा पठनीयम् अतः सन्धिविच्छेदः कर्तुं शक्यते क्रियते चेत् सम्यक् अवगमनं भवति सर्वेपि इत्यत्र कर्तव्यं नास्ति यत्र अवगमनं भवति तत्र कर्तव्यमिति नास्ति अन्यत्र कर्तुं शक्यते अस्तु अस्य भागस्य प्रश्नाः श्रीकृष्णेन सह के प्रस्थिताः पद्मनाभं
यादवाः परिजनाः अन्तःपुरस्त्रियाः च कृष्णेन सह प्रस्थिताः
सम्यक् यादवाः परिजनाः अन्तःपुरस्त्रियः च रामानुजं
रत्नानां राशिः कुत्र आसीत् रत्नानां राशिः इन्द्रप्रस्थनगरस्य समीपम् आसीत्
कुत्र आसीत् द्वारकानगरे एव आसीत्
ओ द्वारकानगर एव आसीत्
द्वारकानगरस्य मार्गे रत्नानां राशिः आसीत् यदा ते प्रस्थानं कुर्वन्ति तदा द्वारकायाः वर्णनं क्रियते तत्र आसीत् ओ सोरि
द्वारकानगरं कुत्र अस्ति द्वारकानगरं समुद्रतीरे अस्ति
सम्यक् द्वारकानगरं समुद्रतीरे अस्ति
महालक्ष्मी
युधिष्ठिरः किमर्थं महान्तम् आनन्दम् अनुभूतवान्? युधिष्ठिरः कृष्णस्य आगमनाय आनन्दम् अनुभूतवान्।
कृष्णस्य आगमनवृत्तान्तं श्रुत्वा महान्तम् अथवा कृष्णस्य आगमनेन महान्तम् आनन्दम् अनुभूतवान्। इन्द्रप्रस्थस्य बहिर्भागे कौ परिवारौ मिलितौ?
इन्द्रप्रस्थस्य बहिर्भागे युधिष्ठिरस्य परिवारः कृष्णस्य परिवारः च मिलितौ।
अत्र भवतु अग्रिम सप्ताहे अन्तिमः भागः यत्र शिशुपालस्य वधः, तं भागं पठामः। अद्य शत्रुशानस्य सो विशिष्टधातूनां शत्रुप्रत्ययान्तरूपाणि पुल्लिङ्गे प्रथमाविभक्तौ एकवचने बहुवचने च रूपं किं भवति, कथं वाक्यप्रयोगः इति ज्ञातवन्तः। काव्यकथायाम् इन्द्रप्रस्थप्रयाणं बलरामस्य उद्धवस्य च अभिप्रायः, इन्द्रप्रस्थं गन्तुं कृष्णस्य निश्चयः, ततः प्रयाणवर्णनं, श्रीकृष्णः सपरिवारः द्वारकायाः प्रस्थाय इन्द्रप्रस्थं प्राप्नोति, एतद् दृष्टवन्तः। अग्रिमवर्गः अग्रिम शनिवासरे 10th November। केऽपि प्रश्नाः सन्ति चेत् पृच्छन्तु। मङ्गलं कुर्मः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मिनमो गुरवे, न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। एनी क्वश्चन्? अन्तःपुरः इत्युक्ते किम् इति केनापि पृष्टम्। अन्तःपुरम् इस् द नेम् फार् स्त्रीणां राजभवने स्त्रीणां निवासः अन्तःपुरम् इति कथ्यते। सो यत्र राज्ञः भवन्ति, अन्तःपुरः स्त्रियः इत्युक्ते तत्र कृष्णस्य पत्न्यः, तेषां परिजनाः इति सर्वं भवति। सर्वेषां दीपावलीपर्वणः शुभाशयाः।
In the initial slide, you said Pradipatikam is Patat, no? That Patati, Patat. So, Patat is it a neuter gender? Pradipatikam means the word doesn't complete. It's infinite, like
root, the root word. For like Dhatu, for all Kriyapada. Pratipadika is for nouns, for nominal forms, the root. For example, Ramaha, Ramo, Ramaha. The root word is Rama. So that is called Pratipadika.
So then the Patat will have meaning if you say it is a neuter gender. So
no,
it is not Patat, something like Ka that.
No. In neuter gender, it is a bit difficult because the Pratiparika and the Prathama Vibhakti form are usually the same for Halanta. In Napumsakalinga, the Pratiparika will also be Pathat and the Prathama Vibhakti will be Pathat, Pathati, Pathanti. So, it's different. For Pullinga, the Pratiparika is Pathat. The forms are Pathan, Pathantau, Pathantaha. नपुंसकलिङ्गे प्रातिपदिकं पठत् रूपाणि पठत् पठति पठन्ति।
ओके,
धन्यवादः.